ॐ नमो भगवते वासुदेवाय। अथ पञ्चमोऽध्यायः। ऋषभ उवाच, नायं देहो देहभाजां त्रिलोके कष्टान् कामानर्हते विद्भुजां ये तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्मात् ब्रह्मसौख्यं त्वनन्तम् महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् महान्तस्ते समचित्ता प्रशान्ता विमन्यवः सुहृदः साधवो ये वा मयि श्रीकृतसौहृदार्था जनेषु देहं भरवार्दिकेषु गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्थाश्च लोके नूनं प्रमत्तः कुरुते विकर्म यदीन्द्रियप्रीतया प्रिणोति न साधु मन्ययत आत्मनो यमसन्नपि क्लेशदा स देहः पराभवस्तावदबोधजातो यावन्न जिज्ञासतात्मतत्त्वम् यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने प्रीतिर्न यावन्मयि वासुदेवेन मुच्यते देहयोगेन तावत् यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः पुंसस्त्रिया मिथुनी भावमेतं तयोर्मिथो हृदयग्रन्थिमाहुः अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति यदा मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढाश्लथेत तदा जनसम्परिवर्तते स्माद्मुक्तः परं यात्यतिहाय हेतुम् हंसे गुरौ मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद् गुणकीर्तनान्मे निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक् सच्छ्रद्धया ब्रह्मचर्येण सश्वदसम्प्रमादेन यमेन वाचाम् सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत् कुशलोऽहमाख्यम् कर्मा स्वयं हृदयग्रन्थिबन्धमविद्यया साधितमप्रमत्तः अनेन योगेन यथोपदेशं सम्यग् व्यपोह्यो परमेतयोगात् पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थः इत्थं विमन्युरनुशिष्यादतज्ज्ञान् न योजयेत् कर्म सुकर्ममूढान् कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते लोकस्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान् समीहेत निकामकामः अन्योन्यवैरसुखलेशहेतोरनन्तदुःखं च न वेदमूढः कस्तं स्वयं तदभिज्ञो विपश्चित् अविद्यायामन्तरे वर्तमानम् दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेत् उत्पथगं यथान्धम् गुरुर्न सस्यात् स्वजनो न सस्यात् पिता न सस्यात् जननी न सा स्यात् दैवं न तत्स्यान्न पतिश्च सस्यान्न मोचयेद्यः समुपेत मृत्युम् इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः पृष्ठे कृतो मे यदधर्म आरात् अतो हिमां ऋषभं प्राहुरार्याः तस्मात् भवन्तो हृदयेन जाताः सर्वे महीयान् सममं सनाभम् अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानां भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु तबोधनिष्ठाः ततो मनुष्या प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगाये देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् भवः परसोऽथ विरिञ्च वीर्यः समत्परोऽहं द्विज देवदेवः नः ब्राह्मणैस्तुलये भूतमन्यत् पश्यामि विप्रा किमतः परन्तु यस्मिन् नृपि प्रहुतं श्रद्धयाः पश्यामि कामं न तथाग्निहोत्रे धृता तनूरुषति मे पुराणी येनेह सत्त्वं परमं पवित्रम् शमोदम सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र मत्तोऽप्यनन्तात् परतः परस्मात् स्वर्गापवर्गाधिपतेर्न किञ्चित् येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् सर्वाणि मध्यष्ण्यतया भवद्भिश्चराणि भूतानि सुताध्रुवाणि सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिश्च दुहार्हणं मे मनोवचो दृक्करणे हितस्य साक्षात् कृतं मे परिबर्हणं हि विना पुमान् येन महाविमोहात् कृतान्तपाशान्न विमोक्तुमीशेत्। श्रीशुक उवाच एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभावः परमसुहृत् भगवान् ऋषभापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणम् पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठम् परमभागवतम् भगवज्जनपरायणम् भरतम् धरणिपालनायाभिषिच्य स्वयम् भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिता हवनीयो ब्रह्मावर्तात् प्रवव्राज जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठीवनग्राव सकृद्रजः प्रक्षेप भूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थाने नासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवीमेकचरः परिबभ्राम अतिसुकुमारकरचरणोरस्थल विपुलबाह्वंसगलवदनाद्यवयवविन्यासः प्रकृतिसुन्दरस्वभावहासमुखो नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमसरासनमुपदधानः परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत यर्हि वावस भगवान् लोकमिमम् योगस्याद्धा प्रतीपमिवाचक्षाणस्तत्प्रतिक्रिया कर्म बिभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः तस्य ह यः पुरीशसुरभि सौगन्ध्यवायुस्तम् देशम् दशयोजनम् समन्तात् सुरभिम् चकार एवम् गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरित पिबति खादत्यवमेहति स्म इति नानायोगचर्याचरणो भगवान् कैवल्यपतिर्ऋषभो विरत परममहानन्दानुभव आत्मनि सर्वेषाम् भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृपहृदयेनाभ्यनन्दत् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।